ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः।
धन्यवादः महोदय। सर्वेभ्यो नमः। अस्मिन् वर्गे सर्वेषां स्वागतम्। अस्माकं प्रवर्तमानः विषयः अस्ति तृतीया विभक्तिः इति। गतवर्गे किञ्चित् एव परिचयं जातम् अस्मिन् विषये, तत्र कीदृशरूपं भवति इति तत्र पुटसङ्ख्या 167 मध्ये दत्तमस्ति, तावदेव दृष्टवन्तः। किन्तु तत्र अकारान्त पुल्लिङ्गः, आकारान्त ईकारान्त स्त्रीलिङ्ग, अपि अकारान्त पुल्लिङ्ग अकारान्त नपुंसलिङ्गानां पदानां तृतीयविभक्तिरूपं कथं भवति इति जानीमः। तत्र पेज् 168 मध्ये कोष्टकम् अस्ति, तत् एकवारं पुनस्मरणं तस्य पुनस्मरणं कुर्मः, तदनन्तरम् अग्रे यः अभ्यासः अस्ति तमपि कुर्मः। अतः तत्र प्रथमतया तत्र गीताञ्जलि भगिनी, तत्र हस्तः इति दत्तमस्ति 168 मध्ये, तत्र एकवारं रूपं वदति वा भगिनि? गीताञ्जलि भगिनि अस्ति वा?
महोदय किञ्चित् अग्रे, महोदय किञ्चित् अनन्तरं, क्षम्यतां महोदय, निमिषद्वयं
निमिषद्वयं
महोदय। प्रथमविभक्ति ओन्लि
तृतीयविभक्तिरूपम्।
ओके, प्रथमविभक्तिः हस्तः स्तौ हस्ताः माला माले मालाः।
केवलं हस्त इति तत्र प्रथमविभक्तिरूपं, तदनन्तरं तस्य तृतीयविभक्तिरूपम्।
ओके ओके, हस्तः हस्तौ हस्ताः तृतीया विभक्तिः, हस्तेन हस्ताभ्यां हस्तैः।
हा तावदेव। हा इदानीं देवः भवति चेत् रूपं किं भवति?
प्रथमविभक्ति देवेन देवाभ्यां देवैः,
देवेन देवाभ्यां देवैः। समीचीनं। हा अस्तु, अग्रे शुभा भगिनी, तत्र रामः अस्ति चेत् तृतीयविभक्तिरूपाणि किं भवति?
रामेण रामाभ्यां रामैः।
हा अत्र विषयः इदानीं तत्र एकः विषयः अस्ति, तत्र देवेन किन्तु अत्र रामेण इति भवति, तत्र णत्वं भवति खलु। हा अतः तत्र यदा तृतीयविभक्तिरूपं कर्तुम् इच्छामः तत्र सावधानं णत्वं भवति इति। अतः
रेपः अस्ति चेत्, रेपः शकारः अस्ति चेत् णत्वं भवति,
णत्वं भवति इति साधारणनियमः, तद् स्मर्तव्यम् स्मर्तव्यः अत्र, एषः साधारणनियमः अस्मिन् सन्दर्भे। अस्तु समीचीनं। हा अस्तु, अग्रे नरेश महोदय, इदानीं तत्र माला इति पदस्य प्रथमविभक्तिरूपमपि तृतीयविभक्तिरूपं पठति वा?
माला
वदतु महोदय इदानीं।
माला माले मालाः तृतीयविभक्ति, मालया मालाभ्यां मालाभिः।
हा मालया मालाभ्यां मालाभिः इति। समीचीनं महोदय। इदानीं तत्र माला इति स्थाने महिला अस्ति चेत् किं भवति?
महिला महिले महिलाः तृतीयविभक्ति, महिलया महिलाभ्यां महिलाभिः।
हा इति भवति। समीचीनं महोदय। अस्तु हा अस्तु, अग्रे वंशीश्वर भगिनी, नमस्कारः।
नमस्ते महोदय।
नमस्कारं भगिनी। तत्र पेज् 168 मध्ये स्मः भगिनी, पेज् 167 168 मध्ये तृतीयविभक्ति इति विषयः. अस्तु, तत्र इदानीं उषा भगिनी वक्तुं शक्नोति वा अथवा?
आं महोदय, आं महोदय.
अस्तु, हा अस्तु भगिनि, इदानीं तत्र सूची इति रूपम् अस्ति, तत् एकवारं पठति वा?
सूची, सूच्यौ, सूच्यः, तृतीयविभक्ति, तृतीयविभक्त्यां, सूच्यां, सूचीभ्यां, सूचीभिः.
हा, सूची, सूच्यौ, सूच्यः, सूच्या, सूचीभ्यां, सूचीभिः. इदानीं देवी अस्ति चेत्?
देवी, देव्यौ, देव्यः, तृतीयविभक्त्यां देव्या, देवीभ्यां, देवीभिः.
हा, समीचीनं भगिनि. अस्तु, हा इदानीं तत्र अनन्तरं तत्र नपुंसकलिङ्गे अकारान्त जानीमः, तत्र अकारान्त नपुंसकलिङ्ग कीदृशरूपं भवति इत्युक्ते तत्र अकारान्त पुल्लिङ्गरूपमेव भवति तृतीयारभ्य. अतः हस्तेन, हस्ताभ्यां, हस्तैः इति अकारान्त पुल्लिङ्गरूपम् अस्ति, तावदेव फलम् अकारान्त फलं नपुंसकलिङ्गपदस्य अपि तृतीयविभक्तिरूपं फलेन, फलाभ्यां, फलैः इति भवति. अतः एतद् तु मनसि सम्यक्तया स्थापितव्यम्. एतद् एतानि रूपाणि सम्यक्तया स्थापितव्यं मनसि. अग्रिमे पुटे यदस्ति तत्र दीर्घकोष्टकः अस्ति, बृहत्कोष्टकः अस्ति, तत्र सर्वं मनसि स्थापितव्यम् इति नास्ति. किन्तु एषः लघुकोष्टकः यः अस्ति तं स्थापितव्यः, तं स्थापितव्यमेव. अस्तु, तर्हि अग्रे गच्छामः, अभ्यासः कुर्मः. तत्र शुभदा भगिनी तत्र अभ्यासः, प्रथम अभ्यासः पठति वा?
आम् महोदय. अभ्यासः तृतीयाविभक्तिरूपैः, तृतीयाविभक्तिरूपैः रिक्तस्थानं पूरयत. अत्र कृष्णः हस्तः इति दत्तमस्ति, कृष्णः हस्तेन सेनां दर्शयति.
हा, कृष्णः हस्तेन सेनां दर्शयति. हा, तत्र दर्शयति इति क्रियापदं सेनाम् इति किं भवति?
सेनाम् इति कर्मपदं.
कर्मपदं,
कृष्णः
इति, कृष्ण इति कर्तृपदं. हा, तत्र हस्तेन इति तत्र तृतीयविभक्ति, तत् कर्मपदं वा किमपि नास्ति. इदानीं नूतनपदं, यतः यदि तत्र लघुवाक्यं कुर्मः तत्र किं भवति? कृष्णः दर्शयति. कृष्णः किं दर्शयति अथवा कां दर्शयति? कृष्णः सेनां
दर्शयति,
दर्शयति इति भवति. तत्र कम् अथवा किम् अथवा काम् इति प्रश्ने सेनाम् इति आगच्छति. इदानीं तत्र हस्तेन इति तत्पदं कथम् आगच्छति? कस्य प्रश्नस्य उत्तरं भवति?
कृष्णः, कृष्णः कथं सेना दर्शयति? कृष्णः हस्तेन.
कथमपि समीचीनम् अथवा अन्यत् केन इति अस्ति चेत् तत्र उत्तरस्य रूपं, विभक्तिरूपमपि तत्र सुलभतया जानीमः. अतः कृष्णः केन सेनां दर्शयति? कृष्णः हस्तेन सेनां
दर्शयति,
सेनां दर्शयति इति जातम्. अस्तु, समीचीनम्. अस्तु, अग्रे वंशीसुधा भगिनी अग्रिमं करोति वा?
महोदय, तत्र अभ्यासः अस्तु, द्वितीयं करोमि वा?
द्वितीय रथः इति यदस्ति.
कृष्णः रथः गच्छति, कृष्णः रथेन गच्छति,
कृष्णः रथेन गच्छति. तत्र प्रश्नः किं भवति? प्रश्नः कः अत्र?
कथं गच्छति वा
अथवा
कथम् अथवा
कृष्णः
केन गच्छति वा?
केन गच्छति, कृष्णः केन गच्छति इति. समीचीनम्. इदानीं तत्र रथेन इति अस्ति, तत्र द्विवचने किं भवति?
रथाभ्यां भवति
बहुवचने
रथैः भवति
रथैः इति भवति समीचीनं हा अस्तु अग्रे शोभा भगिनि
कषा इति अस्ति अश्वान् चोदयति इति कृष्णः कषया अश्वान् चोदयति तत्र कषा इत्युक्ते विप् इति अस्ति वा महोदय
आम् आम् आं भगिनि तदेव तत्र तम् उपयुज्य अश्वान् चोदयति चोदयति
चोदयति इत्युक्ते एक्सलरेट् इति अर्थे
तत्र शीघ्रं
शीघ्रं
गच्छतु इति तत्र प्रचोदयात् इति अस्ति खलु एतादृश अर्थ एव तत्र अग्रे गन्तव्यम् इति अतः तत्र प्रचोदयति चोदयति
कृष्णः कषया अश्वान् चोदयति अपि च द्विवचने बहुवचने वदामि वा
वदतु भगिनि
कृष्णः कषाभ्याम् अश्वान् चोदयति कृष्णः कषाभिः अश्वान् चोदयति
अश्वान् चोदयति समीचीनं समीचीनं भगिनि तत्र कषा आकारन्त स्त्रीलिङ्गपदं समीचीनं अस्तु अग्रे नरेश् महोदय अग्रिमं
कषा इत्युक्ते किं महोदय
विप् भगिनि तत्र अश्वान् अश्वानां ताडनम् इति यत् कुर्वन्ति तेन तेषां नियन्त्रणं नियन्त्रणम् इति तत्तु अन्यत् अस्ति किन्तु एतद् अस्ति येन ताडयन्ति विप् लाश् इति किमपि अस्ति अग्रे नरेश् महोदय
कृष्णः गदया शत्रून्
हन्ति
तृतीयविभक्ति द्विवचनं गदाभ्यां कृष्णः गदाभ्यां शत्रून् हन्ति बहुवचनं कृष्णः गदाभिः शत्रून् हन्ति
शत्रून् हन्ति समीचीनं महोदय गदा किं भवति गदया गदाभ्यां गदाभिः तत्र द्विवचने जानीमः तत्र सर्वत्र भ्यां भ्यां भ्याम् एव हस्ताभ्यां मालाभ्यां तत्र कोष्टकं पश्यतु हस्ताभ्यां मालाभ्यां सूचीभ्यां फलाभ्यां तत्र यत् प्रातिपदिकमस्ति तत्र हस्तः इति पदस्य प्रातिपदिकं हस्त माला सूची फल तदेव तत्र भवति तत्र किन्तु तत्र अकारः दीर्घाकारः भवति तत्र हस्ताभ्यां मालाभ्यां सूचीभ्यां यत्र इकारः अस्ति तद् दीर्घ इकार एव तिष्ठति फलफलाभ्याम् इति दीर्घाकारः आगच्छति तदनन्तरं तत्र बिहि बिहि इति तत्र भवति ऐः अथवा बिहि हस्तैः फलैः अथवा मालाभिः सूचीभिः इति भवति इति समीचीनम् अस्तु इदानीं तत्र गीताञ्जलि भगिनि वक्तुं शक्नोति वा
आं महोदय क्षम्यतां महोदय
अस्तु
कृष्णः वंशी अत्र दत्तं मधुरं गायति वंशी तु दीर्घ ईकारान्त अस्ति तदनन्तरं कृष्णः वंश्या मधुरं गायति एकवचने वंश्या
तदनन्तरं वंश्या इति एकवचने द्विवचने
द्विवचने तु कृष्णः वंश्याभ्यां मधुरं गायति
वंशीभ्यां
क्षम्यतां महोदय वंशीभ्यां मधुरं गायति बहुवचनरूपं कृष्णः वंशीभिः मधुरं गायति
समीचीनं तत्र वंशी इति किम् इति
वंशी इति वंशीसुधा भगिनी एव एकवारम् उक्तवती कृष्णस्य यदा कृष्ण बालावस्था आसीत् तदनन्तरं बालावस्थायां तस्य वेणु तस्य वेणु वंशी इति
वेणु नाम वंशी इति
हा इति भवति एव
सत्यं वा अस्तु अस्तु हा सम्यक् स्मरामः वा वयं
straight one straight flute is vamshi the side flute is venu mahodaya
oh ha
tadapi smartavyam asti astu
sapta
kim uktavati aham na
vamshi sudha bagini kinchit uchahi vadatu bagini nashyate
श्रूयते वा अत्र बालावस्थायां यत् कृष्णः वादयति तस्य नाम वंशी अस्ति यत् स्ट्रेट् फ्लूट् अस्ति भगिनि
स्ट्रेट् फ्लूट् अस्ति वा
अस्तु आं भगिनि स्ट्रेट् फ्लूट् इति वंशी यत् फ्लूट् द सैड् फ्लूट् इस् द वेणु वेणु इति
साधारणतया केवलं वेणु एव पश्यामः वेणुमेव पश्यामः खलु अहम् एतावत् कदापि तत्र कृष्णस्य चित्रे वंशीं न दृष्टवान्
बालावस्था
न न बालावस्थाम् अस्ति किन्तु वेणु अपि अस्ति किन्तु तद् वंशी वा वेणु वा न जानामि अस्तु अहं बालकृष्णस्य चित्राणि पुनरपि द्रष्टव्यम् अस्ति अस्तु
गुड् इन्फर्मेशन् आन् जन्माष्टमी डे
हा सत्यं भगिनि सत्यं हा सत्यं तत्र नूतनविषयः सर्वदा भवति कृष्णस्य विषये हा सत्यं भगिनि
श्रूयते वा
हा इदानीं श्रूयते भगिनि इदानीं सम्यक् श्रूयते हा अस्तु अग्रे उषा भगिनि
आं महोदय वेत्रमस्ति कृष्णः वेत्रेण नपुंसकलिङ्गपदम् अस्ति वेत्रं कृष्णः वेत्रेण धेनुं स्पृशति
तत्र वेत्रेण इति भवति वा अथवा वेत्रेण इति भवति वा
वेत्रेण न महोदय रकार अस्ति
अतः णत्वं भवति समीचीनं वेत्रेण इति वेत्रेण सत्यं सत्यं हा स्वरः मध्ये अस्ति वेत्रेण हा वेत्रेण धेनुं स्पृशति समीचीनम् इदानीं तत्र द्विवचनरूपं बहुवचनरूपं किं भवति वेत्रं पदस्य
धेनुं स्पृशति कृष्णः वेत्राभ्यां वेत्रैः धेनुं स्पृशति
कृष्णः वेत्रैः धेनुं स्पृशति समीचीनं भगिनि हा समीचीनम् अस्तु अग्रे नरेश महोदय चक्रम् शलः स्टाफ् इति
महोदय वेत्रम् इत्युक्ते किं
शलः स्टाफ् दण्डः इव दण्डः इव दण्डः जानाति वा
धन्यवादः
चक्रम् कृष्णः चक्रेण दुष्टान् निगृह्णाति
निगृह्णाति
कृष्णः द्विवचनं चक्राभ्यां दुष्टान् निगृह्णाति कृष्णः चक्रेभ्यः दुष्टान् निगृह्णाति
किमर्थं चक्रेभ्यः तृतीया खलु महोदय चक्रेण चक्राभ्यां
चक्रेभ्यः
चक्रेभ्यः भवति चतुर्थी वा पञ्चमी वा
तृतीया
चक्रैः समीचीनं कृष्णः चक्रैः दुष्टान् निगृह्णाति तत्र णत्वं भवति न वा चक्रेण भवति चक्रेण इति समीचीनं महोदय अस्तु अतः तदेव तत्र रूपाणि ज्ञातवन्तः इदानीं तत्र केवलं सावधानं कुत्र भवितव्यम् इत्युक्ते तत्र एकवचने यदि प्रातिपदिके रकारः रेपः अस्ति चेत् तत्र णत्वं भवति न वा इति द्रष्टव्यं तत्तु सर्वत्र न केवलं पुल्लिङ्गे नपुंसकलिङ्गे एव अन्यत्र तत् एतत् न आवश्यकम् अस्तु अग्रे गच्छामः समीचीनमस्ति द्वितीय अभ्यासः कुर्मः इदानीं तत्र वंशी सुधा भगिनी आरम्भं करोति वा द्वितीय अभ्यासः
आं महोदय आवरणे क्षम्यताम् आवरणे स्थितस्य शब्दस्य तृतीयाविभक्तिरूपेण यदोदाहरणं वाक्यानि रचयत उदाहरणं योद्धारः खड्गाः वा क्षम्यतां महोदय मम पुस्तके किमपि अस्तु योद्धारः खड्गाः खड्गैः युध्यन्ते तत्र बहुवचनरूपमस्ति महोदय खड्गाः खड्गैः इति बहुवचनतृतीयविभक्तिः अस्ति खड्गैः युध्यन्ते
समीचीनं भगिनि किञ्चित् उच्चैः वदतु भगिनि श्रूयते किन्तु किञ्चित् उच्चैः भवति चेत् समीचीनं भवति
अस्तु महोदय प्रथमम् अस्ति भक्ताः पत्राणि देवम् अर्चन्ति भक्ताः पत्रैः देवम् अर्चन्ति
पत्रैः देवम्
आं महोदय पत्रं पत्राणि पत्रेण पात्राभ्यां पत्रैः इति
तृतीयं भवति वा अत्र तृतीयविभक्ति एकवचने
आं महोदय
तत्र प्रथमविभक्तिरूपम् अपि पत्राणि एव अस्ति तृतीयविभक्तौ अपि नत्वं भवति एव समीचीनं भगिनि अस्तु अग्रे शोभा भगिनि
ऋषयः वेदमन्त्राः अपि हवनं कुर्वन्ति इति ऋषयः वेदमन्त्रैः हवनं कुर्वन्ति
ऋषयः वेदमन्त्रैः हवनं कुर्वन्ति समीचीनं वेदमन्त्रैः तत्र एकवचने किं भवति वेदमन्त्रः अस्ति चेत्
वेदमन्त्रेण हवनं कुर्वन्ति रेफस्य निमित्तेन वेदमन्त्राभ्यां हवनं कुर्वन्ति वेदमन्त्रैः हवनं कुर्वन्ति
इति समीचीनं भगिनि अस्तु अग्रे गीतञ्जलि भगिनि अस्तु
आं महोदय क्षम्यताम् आं महोदय किञ्चित् मम डिवैस् रिस्पोण्ड् न करोति अस्तु अर्जुनः दिव्यदृष्टिः विश्वस्वरूपं दृष्टवान् अर्जुनः दिव्यदृष्टैः न किन्तु दिव्यदृष्टिः तु एकमेव अस्तु न भगिनी एकमेव अस्ति न महोदय
एकवचनमेव तत्र प्रायः
अपि
तत्र अत्र प्रायशः एतद् न दातव्यम् आसीत् इति मन्ये यतोहि तत्र अग्रे एव अस्ति किन्तु अग्रिमे पुटे अग्रिमं पुटं पश्यतु तत्र मतिशब्दस्य रूपं
स्त्रीलिङ्गत्या अर्जुनः दिव्यदृष्ट्या विश्वरूपं दृष्टवान् इति
दिव्यदृष्ट्या विश्वरूपं दृष्टवान् तत्र मतिशब्दस्य मत्या मतिभ्यां मतिभिः ह्रस्व इकारः तत्र मतिभ्यां मतिभिः किन्तु तत्र नदी अस्ति चेत् तत्र नद्या नदीभ्यां नदीभिः इति तत्र ह्रस्वैकारः ह्रस्वैकार एव तिष्ठति दीर्घैकार नदी मध्ये तत्र नदीभ्यां नदीभिः तदेव तिष्ठति अस्तु दिव्यदृष्ट्या विश्वरूपं दृष्टवान् समीचीनं भगिनि अस्तु अग्रे शुभदा भगिनि
But some participants may be experiencing temporary audio issues. Our teams are working to resolve this as quickly as possible.
अस्तु धन्यवादः शुभदा भगिनि
भीमः गदा इति दत्तमस्ति भीमः गदया रिपून् प्रहरति तृतीया एकवचन आफ् गदा गदया रिपून् प्रहरति
रिपून् इति वचनं जानाति वा
द्वितीय बहुवचन
प्रातिपदिकं किं
रिपु रिपून्
इति तत्र रिपून् इति एव भवति तत्र णत्वं न भवति तत्र तत्र अन्ते इन् अस्ति चेत् रेपः अस्ति किन्तु अन्ते इन् भवति चेत् तत् इन् एव तिष्ठति तत्र णत्वं न भवति अतः रिपुन् एव भवति तत्र
महोदय
भीमः गदया रिपुन् प्रहरति समीचीनं
महोदय तत्र रिपुन् इति नकारान्तपदं नास्ति वा
न न न रिपुः रिपुः इत्युक्ते तत्र शत्रुः इति शत्रून् प्रहरति न भगिनि गुणिन् शब्दः आसीत् चेत् तत्र किं भवति तत्र गुणिन् पदं नकारान्तपदम् आसीत् चेत् तत्र गुणिन् इति स्वीकुर्मः तत्र गुणिन् इति पदस्य रूपं किं भवति गुणी गुणिनौ गुणिनः तदनन्तरं गुणिनम् इति तत्र तत्र गुणीन् इति कुतः कुत्र भवति विभक्तिरूप्या तत्र का विभक्तिरूपम्
इति द्विवचने गुणिनः भवति महोदय
गुणिनः अस्तु किन्तु गुणिन् इति कुत्र भवति अत्र प्रहरति इति क्रियापदं प्रहरति इति क्रियापदं खलु भगिनि अतः अत्र भीमः प्रहरति किम् अथवा कं प्रहरति इति प्रश्ने सति रिपून् प्रहरति अतः रिपून् इति तु कर्मपदं द्वितीयविभक्तिरूपम्
खलु
वंशीसुधा भगिनी न श्रूयते इदानीं श्रूयते भवती किमपि वदन् आसीत् किन्तु तत्र न श्रुतवान्
न जाने महोदय रिपून् इति गुरुशब्दवत् बहुवचने द्विवचने अस्ति
बहुवचन द्वितीयविभक्तिरूपम्
ओ अस्तु अस्तु महोदय
समीचीनं वा भगिनि
अवगच्छामि
अस्तु अस्तु समीचीनम् अस्तु अग्रे उषा भगिनि
आं महोदय वयं नेत्रे इति दत्तमस्ति पश्यामः वयं नेत्राभ्यां पश्यामः नेत्रे इति द्विवचने अस्ति महोदय
समीचीनं भगिनि वयं नेत्राभ्यां पश्यामः समीचीनं अस्तु नेत्राभ्यां तत्र एकवचने रूपं किं भवति
नेत्रा नेत्रे नेत्राः
न न न किं किं पुनः
नेत्रे द्विवचने अस्ति न महोदय
एकवचनरूपं किम् अस्ति
एकवचनं नेत्रे सीता इति अस्ति
न न न अतः एव अहं पृष्टवान् भगिनि नेत्रं नेत्रे नेत्राणि
नेत्रं
तत्र द्विवचने एकारः अस्ति द्विवचनम् इति जानीमश्चेत् तत्र सत्यमेव तत्र महिला महिले महिलाः अथवा नेत्रं नेत्रे नेत्रः तत्र न जानीमः नपुंसकलिङ्गं वा स्त्रीलिङ्गम् आकारान्त स्त्रीलिङ्गं वा इति, किन्तु अत्र नेत्रम् इति
नपुंसकलिङ्गैः, परन्तु बहुवचने नेत्रैः इति अस्ति न महोदय?
नेत्रैः इति अस्ति, सत्यं.
नेत्रैः इत्युक्ते नपुंसकलिङ्गम् एव अस्ति इति अहं चिन्तयामि महोदय.
सत्यं भगिनि, हा नेत्रैः, तत्र नेत्रेण नेत्राभ्यां नेत्रैः. हा किन्तु यदि तत्र नेत्राभ्याम् इति रूपं समीचीनमेव अस्ति, नेत्राभ्याम् इति वक्तुं शक्नुमः, किन्तु तत्र ज्ञानं न भवति तत्र, यतोहि तत्र हस्ताभ्यां मालाभ्यां फलाभ्यां सर्वत्र आभ्याम् एव अस्ति, अतः तत् लिङ्ग वा नपुंसकलिङ्ग वा स्त्रीलिङ्ग आकारन्त वा भवितुम् अर्हति, किन्तु नपुंसकलिङ्गपदम्. अस्तु, अग्रे नरेश महोदय. नरेश महोदय, अस्तु, एतदेव आडियो प्राब्लम् इति उक्तवन्तः. अस्तु, प्रायशः क्लेशः इदानीम् अस्ति, अग्रे प्रायशः तद् गच्छति इति पश्यामः इति चिन्तयामः. अस्तु, अग्रे शोभा भगिनि.
अश्वाः पादाभ्यां धावन्ति, पादैः धावन्ति, अश्वाः सन्ति पादैः.
अपि एकः अश्वः अस्ति चेत् अपि पादैः एव खलु,
पादैः एव
अश्वाः पादैः धावन्ति, समीचीनं. हा अस्तु, अग्रे वंशी सुधा भगिनि. अस्तु, गीताञ्जलि भगिनि.
आं महोदय, द्रौपदी, क्षम्यतां, द्रौपदी कमलानि पुनः मतिवत् अस्ति. द्रौपदी कमलानि तु बहुवचन, कमल, ओ कमलानि तु नपुंसकलिङ्गपदम् अस्ति महोदय,
बहुवचनं कमलं कमले
कमलानि, कमलानि बहुवचनरूपं तृतीया अस्ति. कमलैः मालां रचयति,
हा समीचीनं, द्रौपदी कमलैः मालां रचयति, समीचीनं भगिनि. हा अस्तु
महोदय, श्रूयते वा? श्रूयते वा?
हा इदानीं श्रूयते भगिनि, इदानीं श्रूयते, पूर्वं न श्रुतम्. अस्तु, इदानीं वदतु, अग्रे वदतु भगिनि. नार्यः इति,
नार्यः द्रोण्यः जलं नयन्ति. नार्यः द्रोणी इति शब्दस्ति, द्रोणिभिः जलं नयन्ति बहुवचनरूपमस्ति, द्रोणी द्रोण्यौ द्रोण्यः द्रोण्या द्रोण्या द्रोणीभ्यां द्रोणीभिः इति भवति वा महोदय?
समीचीनं भगिनि, नार्यः द्रोणीभिः जलं नयन्ति, समीचीनं भगिनि. अस्तु, अग्रे शुभदा भगिनि.
दृष्टद्युम्नः खड्गः द्रोणाचार्यं हतवान्. दृष्टद्युम्नः खड्गेन द्रोणाचार्यं हतवान्. खड्गः इति पुल्लिङ्ग एकवचन, तस्य तृतीया विभक्ति एकवचन, खड्गेन,
खड्गेन, समीचीनं, हा खड्गेन द्रोणाचार्यं हतवान् इति, समीचीनम्. अस्तु, इदानीम् अग्रिमे पुटे तत्र नरेश महोदय नमस्कारः, तत्र वयं न श्रुतवन्तः महोदय,
इदानीं श्रूयते,
इदानीं श्रूयते महोदय, इदानीं श्रूयते, किञ्चित् प्रतिध्वनिः अस्ति किन्तु श्रूयते महोदय.
अस्तु,
हा अस्तु, अतः तत्र अत्र किं कुर्मः, तत्र अग्रिमे पुटे तत्र पेज् 169 मध्ये तत्र बृहत् कोष्टकम् अस्ति, तत्र सर्वाणि रूपाणि तत्र पठितव्यम् इति नास्ति, किन्तु एतत्तु एतस्य परिशीलनं कुर्मः तत्र एकमेकं दृष्ट्वा पश्यामः तत्र णत्वं भवति न वा इति तत्र केवलं सावधानं तत्र कुत्र सावधानं भवतु इति अतः तत्र तत्र णत्वं कस्मिन् स्तम्भे भवति तृतीयविभक्ति तत्र एकवचनस्तम्भः अस्ति द्वितीय द्विवचनस्तम्भः अस्ति बहुवचनस्तम्भः अस्ति णत्वं भवति चेत् कस्मिन् स्तम्भे भवति प्रथमस्तम्भे एकवचनस्तम्भे अत्र स्त्रीलिङ्गे भवति वा णत्वं पुल्लिङ्गे भवितुम् अर्हति अपि नपुंसकलिङ्गे भवितुम् अर्हति नपुंसकलिङ्गे भवितुम् अर्हति अस्तु तत्र पश्यामः तत्र यत्र दत्तम् अस्ति तत्र मुनिना कविना भक्त्रा कुत्र कुत्रापि अस्ति वा तत्र केवलं तत्र पुष्पेण इति अस्ति तदनन्तरं वस्त्रेण इति अस्ति तावदेव इति मन्ये खलु अन्यत्र कुत्रापि नास्ति अस्तु तत्र एतत् कुर्मः तत्र एतावत् वयं किं जानीमः तत्र अकारान्तपुल्लिङ्ग अतः वयं बालः योधः भेदः जानीमः इदानीं मुनिः कविः शिशुः तत्र मुनिः कविः न जानीमः अतः तत्र तस्य किञ्चित् लघु अभ्यासं कुर्मः अस्तु तत्र नरेश महोदय अस्तु तत्र मुनिशब्दस्य रूपम् एकवारं वदतु महोदय तृतीयविभक्तिरूपं
मुनिना मुनिभ्यां मुनिभिः
अस्तु कविः
कविः कविना कविभ्यां कविभिः
अस्तु समीचीनम् अस्तु शोभभगिनी अग्रे इदानीं तत्र शिशुः इति
शिशुना शिशुभ्यां शिशुभिः
समीचीनं गीतांजलि भगिनी इदानीं तत्र ऋकारान्तपदं वक्ता वक्तृ इति ऋकारान्तपदं वक्ता वक्तारो वक्तारः तृतीयविभक्तिरूपं किम् अस्ति
वक्ता वक्तारो वक्तारः द्विविधं वक्त्रा वक्तृभ्यां वक्तृभिः
वक्तृभिः तत्र केवलम् अकारान्ते एव तत्र ऐः ऐः इति भवति सर्वत्र बिः 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 एव अस्ति अस्तु शुभदा भगिनी इदानीं तत्र तत्र ऋकारान्तपदं दृष्टवन्तः भगिनी नारी तत्र धेनुः धेनुः इति रूपं वदति वा
धेन्वा धेनुभ्यां धेनुभिः
अस्तु तत्र यदि तत्र धेनुपदस्य लिङ्गं किम् इति सर्व एतादृशप्रश्नः अस्ति चेत् तत्र पुटसङ्ख्या 13 पेज् 13 पश्यतु तत्र सर्वं दत्तम् अस्ति अतः तत्र पुल्लिङ्ग वा स्त्रीलिङ्ग वा धेनु रज्जुः वधू चमु सर्वं स्त्रीलिङ्ग सर्वं स्त्रीलिङ्गम् उकारान्त अग्रे उषा भगिनी तत्र धेनुः तनुः समानं चञ्चुः अपि समानम् इदानीं तत्र वधू
महोदय वक्त्रा लिङ्गं किं महोदय
वक्ता प्रायशः पुल्लिङ्गपदम् अस्ति ऋकारान्तपुल्लिङ्गं यः वदति सः वक्ता पुल्लिङ्गं दाता इव उषा भगिनी इदानीं तत्र तत्र ऊकारान्त स्त्रीलिङ्गपदम् अस्ति तत्र स्त्रीलिङ्गे वयं जानीमः मतिः इति ह्रस्वैकारपदम् अस्ति नदी तु दीर्घैकारः जानीमः धेनुः ह्रस्व उकारः अपि वधूः दीर्घ ऊकारः पदम् अस्तु, इदानीं तदनन्तरं तत्र किमपि नास्ति, तत्र अकारान्त नपुंसकलिङ्गपदमेव दत्तमस्ति. अस्तु, इदानीं
अग्रे नपुंसकलिङ्गे इकारान्त अपि उकारान्त अपि वयं पठितवन्तः महोदय.
नपुंसकलिङ्गे आमामामां हा, तत्र दधि दधिनि दधिनि वस्तु वस्तूनि वस्तूनि हा, तत्र अत्र न दत्तमस्ति किन्तु प्रायशः अग्रे प्रायशः दत्तमस्ति इति मन्ये भगिनि, पश्यामः. हा किन्तु प्रश्नः समीचीनः एव, प्रश्नः समीचीनः एव, तत्र अत्र कोष्टके न दत्तं किन्तु प्रायशः अग्रे आयाति इति मन्ये, पश्यामः भगिनि. हा किन्तु प्रश्नः तु समीचीनमेव. इदानीं तत्र एतादृश अभ्यासं कुर्मः, एतत् तत्र इकारान्त एतत् सर्वं स्थापयितुं तत्र मिश्र अभ्यासं कुर्मः. हा ध्वनिः कुत्र कुतः आगच्छति? हा इदानीं प्रायः नास्ति. अस्तु हा अस्तु,
इकारान्तपुल्लिङ्गशब्दाः डु वी हेव् फार् एक्साम्पल् पाणिनि, सो डु वी हेव् इकारान्तपुल्लिङ्गशब्दः एनिवेर्? नो, दीर्घ इकारान्त, दीर्घ इकारान्त,
दीर्घ इकारान्तः, दीर्घ इकारः नास्ति इति मन्ये, दीर्घ इकारः नास्ति इति मन्ये भगिनि. तत्र किन्तु योगी इति पदमस्ति, प्रथमविभक्तौ योगी इति अस्ति, किन्तु नकारान्तपदमिति जानीमः खलु. अतः भवत्याः प्रश्नः सः नास्ति खलु, तत्र दीर्घ ईकारः पदम् अस्ति इति वा इति भवत्याः प्रश्नः खलु. तत्र शब्दमञ्जर्यां द्रष्टव्यम् अस्ति,
परन्तु
न स्मरामि.
ह्रस्व
इकारः एव अस्ति
पुल्लिङ्ग,
न न हा अस्तु, तत्तु अस्ति, किन्तु हा अन्यत् विशेषपदम् अस्ति वा इति. अस्तु, इदानीम् एतत् कुर्मः. अत्र मुनिः इति जानीमः, तत्र अकारान्त, तत्र प्रथमतया पेज् 168 मध्ये यद्दत्तमस्ति, अकारान्त आकारान् अकारान्तपुल्लिङ्ग नपुंसकलिङ्ग स्त्रीलिङ्गे, आकारान्तस्त्रीलिङ्ग ईकारान्तस्त्रीलिङ्ग, तस्य रूपं सम्यक्तया मनसि भवेत्. इदानीम् एतत् कुर्मः, तत्र मुनिः अस्ति, इदानीं तत्र किं कुर्मः, उत्तमः मुनिः इति रूपं स्वीकुर्मः. अस्तु, तत्र वयं जानीमः नियमः अस्ति, उत्तमः मुनिः इत्युक्ते तत्र विशेषणविशेष्यं इति भवति, तत्र विशेषणविशेष्यभावः अस्ति चेत् समानलिङ्गं समानविभक्ति समानवचनम् इति. अतः उत्तमः मुनिः भवति चेत् तत्र प्रथमविभक्तौ किं भवति द्विवचने उत्तममुनिः, वंशीसुधा भगिनी?
आम्, उत्तममुनिः इति द्विवचने न महोदय,
उत्तमः मुनिः प्रथमविभक्तिरूपम्.
अस्तु,
उत्तमः मुनिः इदानीं प्रथमविभक्ति द्विवचनरूपम्.
उत्तमौ मुनौ भवति वा?
उत्तमौ
दीर्घमुनि
मुनि, अत्र एव दत्तमस्ति खलु भगिनि, मुनिः मुनि मुनयः, प्रथमविभक्तिरूपमपि दत्तमस्ति खलु अत्र.
आं महोदय, उत्तमौ मुनि इति भवति मुनि.
हा उत्तमौ मुनि, अपि बहुवचने किं भवति?
न न, उत्तमः मुनिः उत्तमौ मुनि इति भवति महोदय.
उत्तमः मुनिः उत्तमौ मुनि बहुवचने इदानीम्?
उत्तमाः मुनयः.
हा उत्तमाः मुनयः इति भवति, समीचीनम्. हा इदानीं शोभा भगिनि.
महोदय एकः प्रश्नः, महोदय क्षम्यतां महोदय, श्रद्धा इति तु स्त्रीलिङ्गपदम् अस्ति न महोदय? तृतीयरूपं तृतीयरूपं तु किमपi पदं वर्ण अस्ति चेत् तत्तु हलन्त भवति तृतीय एकवचने, स्त्रीलिङ्ग अस्ति चेत् श्रद्धा इति समीचीनं महोदय, अत्र तु दत्तं श्रद्धया.
महिला महिलया लता लतया श्रद्धा आकारान्तपदम् अस्ति खलु भगिनि माला नदी अस्ति चेत् किन्तु एतत् समीचीनमेव अस्ति भगिनि तत्र अस्तु तत्र स्त्रीलिङ्गे किं भवति आकारान्तस्त्रीलिङ्गपदम् अस्ति चेत् तत्र लता अथवा महिला अस्ति चेत् तत्र अन्ते दीर्घ आकारः यः अस्ति तद् ह्रस्व आकारः भवति महिलास्थाने महिला तदनन्तरं या इति भवति महिलया इति श्रद्धया लतया इति किन्तु ईकारान्त अथवा ऊकारान्त अस्ति चेत् तत्र किं भवति तत्र अकारः तत्र ईकारः उकारः न तिष्ठति केवलं तत्र यकारः वा वकारः आगच्छति तत्र धेनुः धेन् योगः वा उकारः तत्र उकारः किं भवति तत्र सन्धि किमपि कार्यं कृत्वा तत्र उकारः वकारः भवति धेन् वा इति नार्या भगिन्या अतः तत्र केवलं तत्र किं श्रद्धया इति स्थाने प्रायशः सन्धिकार्यं नास्ति अन्यत्र सन्धिकार्यम् अस्ति अतः किन्तु रूपं यत् भवती उक्तवती समीचीनमेव तत्र आकारान्ते एव तत्र धया इति अथवा महिलया लतया इति रूपं भवति
आम् तदेव मूर्ति आरब्धतः वधूपर्यन्तं सर्वे तृतीया एकवचनरूपाणि हलन्त एव आयाति तदनन्तरं या आयाति
हलन्त किमर्थं
हलन्त इत्युक्ते मूर्ति मूर्त्या तकारान्त तु हलन्त भवति न महोदय मूर्त्या तकारान्त मूर्ति ईकारान्त यण् सन्धि कारणेन मूर्त्या इति यण् कारणेन इति परिवर्तनम् अभवत् इति
सत्यं तत्र तत्र सन्धिकार्यम् अस्ति हा किन्तु अग्रे पश्यामः कः सन् कः कार्यः इति हा अस्तु इदानीं शोभा भगिनी अत्र एतत् कुर्मः उत्तमः मुनिः इति तत्र प्रथमविभक्तिरूपं दृष्टवन्तः इदानीं तस्य तृतीयविभक्तिरूपं कीदृशं भवति
उत्तमः अस्तु उत्तमेन मुनिना उत्तमाभ्यां मुनिभ्याम् उत्तमैः मुनिभिः
हा इति भवति हा उत्तमैः मुनिभिः इति भवति समीचीनम् अस्तु अग्रे गीताञ्जलि भगिनि इदानीं तत्र कविः इति अस्ति इदानीम् उत्तमः कविः इति
उत्तमः उत्तमः कविः उत्तमौ कवी उत्तमाः कवयः
इदानीं तृतीयविभक्तिरूपम्
कविना उत्तम कथं वदामः महोदय
उत्तमः किं भवति उत्तमः
उत्तमेन उत्तमेन कविना उत्तमेन कविना उत्तमाभ्यां कविभ्याम् उत्तमैः कविभिः
हा समीचीनं तावदेव अस्तु समीचीनम् अस्तु इदानीं शुभदा भगिनि तत्र शिशुः इति तत्र सुन्दरः शिशुः इति
सुन्दरः शिशुः सुन्दरौ शिशु सुन्दराः शिशवः प्रथमा विभक्ति. तृतीया विभक्ति सुन्दरेण सुन्दरेण शिशुना सुन्दराभ्यां शिशुभ्यां सुन्दरैः शिशुभिः.
हा समीचीनं भगिनि. हा सुन्दरैः शिशुभिः. हा इदानीम् उषा भगिनि, तत्र तन्तुः अस्ति, तत्र उत्तमः तन्तुः.
उत्तमः अस्तु महोदय. तन्तुः
तत्रैव दत्तमस्ति. तन्तुः तन्तु तन्तवः.
उत्तमः तन्तुः, उत्तमौ तन्तु, उत्तमाः तन्तवः. उत्तमेन उत्तमेन तन्तुना नत्तु न भवति. उत्तमेन तन्तुना उत्तमाभ्यां तन्तुभ्याम् उत्तमैः तन्तुभिः.
उत्तमैः तन्तुभिः. अस्तु समीचीनं समीचीनं. हा नरेश महोदय, इदानीं तत्र वक्ता इति अस्ति. हा इदानीं तत्र वक्ता इति तत्र किं कुर्मः, बालकः वक्ता इति, हा अथवा बालः वक्ता. बालः वक्ता,
बालः वक्ता, बालौ वक्तारौ, बालाः वक्तारः. तृतीयविभक्ति बालेन वक्त्रा, बालाभ्यां वक्तृभ्यां, बालैः वक्तृभिः.
हा समीचीनम्. अस्तु हा अस्तु. एतादृशं तत्र स्त्रीलिङ्गे अपि एकवारं कुर्मः. ततः किं भवति, एतादृश इकारान्त वा तत्सर्वं मनसि स्थापितं भवति इति, तावदेव. अस्तु अग्रे वंशीसुता भगिनि, इदानीं तत्र भगिनी, हा एतत् स्वीकुर्मः. उत्तमा भगिनी.
उत्तमा भगिनी. अस्तु. उत्तमा भगिनी, उत्तमे भगिन्यौ, उत्तमाः भगिन्यः, उत्तमया भवति वा महोदय?
उत्तमया,
उत्तमया भगिन्या, उत्तमाभ्यां भगिनीभ्याम्, उत्तमाभिः भगिनीभिः.
हा समीचीनं भगिनी, बहु समीचीनम् अस्ति. हा अस्तु अग्रे शोभा भगिनी, इदानीं तत्र उत्तमधेनुः.
उत्तमधेनुः, उत्तमा उत्तमधेनुः, उत्तमे धेनु, उत्तमाः धेनवः, उत्तमया धेन्वा, उत्तमाभ्यां धेनुभ्याम्, उत्तमाभिः धेनुभिः.
धेनुभिः समीचीनं भगिनि. हा अस्तु अग्रे गीताञ्जलि भगिनि, इदानीं तत्र तनुः, उत्तमा तनुः.
आं महोदय. उत्तमा, हा उत्तमा तनुः, उत्तमे तनु, उत्तमाः तनवः. तृतीया उत्तमया तन्वा, उत्तमाभ्यां तनुभ्याम्, उत्तमाभिः तनुभिः.
हा समीचीनं भगिनि. हा अस्तु अग्रे शुभदा भगिनि, इदानीं तत्र वधू इति अस्ति, तत्र उत्तमा वधू.
उत्तमा वधू, उत्तमा वधू, उत्तमे वध्वौ, उत्तमाः वध्वः. तृतीया विभक्ति उत्तमया वध्वा, उत्तमाभ्यां वधूभ्याम्, उत्तमाभिः वधूभिः.
हा उत्तमाभिः वधूभिः. हा समीचीनम्. अस्तु अग्रे उषा भगिनी, तत्र इदानीं तत्र तत्र अन्यत् किं कुर्मः, तत्र
क्षम्यता महोदय, तत्र यदि सुन्दरी वधु इति अनेन किं भवति महोदय? सुन्दरी वधु, सुन्दरी सुन्दर्यौ सुन्दर्यः वा किं भवति महोदय?
सुन्दरी वधु वा
सुन्दर्यौ?
सुन्दरी वधु, अस्तु सुन्दरी वधु, अस्तु उषा भगिनी वदति वा? अहं चिन्तितवान् किं दातव्यम् इति, किन्तु
सुन्दरी सुन्दरी वधूः सुन्दर्यौ वध्वौ सुन्दरी सुन्दर्य सुन्दर्यः सुन्दर्यः वध्वः सुन्दरी सुन्दरी नद्या सुन्दर्या वध्वा सुन्दरीभ्यां वधूभ्यां सुन्दरीभिः वधूभिः.
हा समीचीनं भगिनि, हा धन्यवादः. अस्तु, अतः तत्र एतादृशं मिश्रण अभ्यासं कुर्मश्चेत् बहु लाभः भवति, यतोहि तत्र आकारान्त आकारान्त एकवचनं द्विवचनं सर्वं मनसि स्थापितं भवति. अतः कथां पठामः अथवा अन्यत् सम्भाषणं किमपि पठामः एतादृशरूपं पठामश्चेत् जानीमः अस्तु अस्तु एतत् तृतीयविभक्तिरूपम् अस्ति, तत्र विशेषणविशेषभावः अस्ति इति तत्सर्वं ज्ञातुं शक्नुमः. अतः एव अस्तु, तर्हि इदानीम् अग्रे गच्छामः. तत्र एतावत् केवलं रूपाणि दृष्टवन्तः, किन्तु तत्र तृतीयविभक्तेः प्रयोगः कुत्र कुत्र भवति इति तदपि तत्र संक्षिप्तरूपेण वयं दृष्टवन्तः गतवर्गे. तत्र प्रसिद्धप्रयोगद्वयम् अस्ति, एकमस्ति माध्यमं हस्तेन अथवा गदया ताडयति अथवा रथेन गच्छति अथवा एतद् यथा वयं दृष्टवन्तः तत्र रथया गच्छति हस्तेन दर्शयति तत्सर्वं तत्र माध्यमम् इति. अन्यत् अस्ति भावः इति अपि. तत्र अन्यः प्रयोगः अपि अस्ति प्रसिद्धप्रयोगः, तत् अस्ति कर्मणि प्रयोगः अथवा भावे प्रयोगः इति. तत्तु गीतासोपानि द्वितीयभागे आयाति, किन्तु अत्र अहं चिन्तयामि प्रायशः गीतासोपाने प्रत्येकपुटे तृतीयविभक्तिरूपं तु दत्तं सर्वत्र द्रष्टुं शक्नुमः इति. प्रत्येकपुटे इति न, किन्तु बहुत्र वयं द्रष्टुं शक्नुमः गीतासोपाने एव. तत्र यत् अभ्यासं वयम् इदानीं कृतवन्तः तत्रापि पश्यतु, तत्र तृतीयाविभक्तिरूपेण इति अस्ति, अपि प्रथमाभ्यासे अपि तृतीयाविभक्तिरूपैः इति अस्ति. अतः तत्र बहुत्र एतत् तृतीयविभक्तिरूपं द्रष्टुं शक्नुमः. पूर्वं तत्र प्रयोगेण वाक्यानि वदतु, अतः तत्र सर्वत्र तृतीयविभक्तिरूपं भवति इति वयं ज्ञातुं शक्नुमः. अतः तत्र इदानीं किं कुर्मः, अग्रिमे पुटे यत् कोष्टकम् अस्ति तद् अग्रिमे वर्गे कुर्मः. तत्र केवलं रूपस्य स्मरणम् इति. इदानीम् अद्य एकम् अभ्यासं कृतवन्तः रूपस्य स्मरणार्थम्. अग्रिमे वर्गे यत् कोष्टकम् अस्ति अग्रिमे पुटे तद् पूरयामः, रिक्तस्थानम् अग्रिमे वर्गे पूरयामः. इदानीम् अग्रे गच्छामः, तत्र अभ्यासः इति अस्ति यदस्ति अतः प्रयोगस्य ज्ञानं भवतु इति. अस्तु, तर्हि तत्र अग्रे इदानीं हा नरेश महोदय अग्रिम अभ्यास पेज् 171 मध्ये.
आं महोदय, अभ्यासः कोष्टके विद्यमानानां शब्दानां तृतीयाविभक्तिरूपं प्रयुज्य वाक्यं पूरयत. अर्जुनः शत्रून् हतवान्. इश्वः अर्जुनः इश्वेन शत्रून् हतवान्.
महोदय इशवः इति तत्र इशवः इति
शिशुना
शिशुभ्यां शिशुभिः इषवः इषुणा इषुना इषुणा इषुभिः शत्रून् हतवान्। समीचीनं महोदय, अस्तु अग्रे वंशीसुतो भगिनि।
आं महोदय, क्षम्यताम्। द्वितीयमस्ति भीमः दुर्योधनः च युध्यते। भीमः
युध्यते
आं महोदय, युध्यते भीमः दुर्योधनः च गदाभ्यां भवति वा? गदा इति शब्द गदाभ्यां,
हा गदा इति आकारान्तस्त्रीलिङ्गपदं, गदे इति वचनं किं? द्विवचने, हा द्विवचने, अतः गदाभ्यां युध्यते। समीचीनं भगिनि, पूर्णवाक्यं पुनरेकवारं वदतु भगिनि।
आं महोदय, भीमः दुर्योधनः च गदाभ्यां युध्यते।
युध्यते न खलु, तत्र युध्यते इति। समीचीनं भगिनि, अस्तु शोभा भगिनि अग्रे। युध्यते तत्र
युध्यते युध्यन्ते,
हा अतः तत्र द्विवचने दत्तमस्ति, भीमः दुर्योधनः च। हा अतः तत्र किं, तत्र क्रियापदमपि द्विवचने अस्ति, कर्तृपदं द्विवचने अस्ति, अपि माध्यमपि द्विवचने अस्ति, कर्मपदं नास्ति तत्र। हा किन्तु अस्तु अग्रे शोभा भगिनि।
आं महोदय, तत्र रज्जवः रज्जुः इति स्त्रीलिङ्गपदम् अस्ति महोदय, रज्जुः इति सारथिः रज्जवः बहुवचने, अतः तत्र धेनुः इति नयामि चेत् धेनुभिः, सारथिः रज्जुभिः अश्वान् बध्नाति।
हा सारथिः रज्जुभिः अश्वान् बध्नाति। समीचीनं भगिनि, हा रज्जुभिः, अस्तु समीचीनं।
तत्र रज्ज्वा रज्जुभ्यां रज्जुभिः इति भवति महोदय।
हा तत्र रज्ज्वा रज्जुभ्यां रज्जुभिः, समीचीनं भगिनि, हा समीचीनं। हा अग्रे गीताञ्जलि भगिनि।
आं महोदय, हर्षमर्षभयोद्वेगाः इति तु बहुवचनरूपम् अस्ति, वेगाः इति पुंलिङ्ग् अस्ति महोदय,
बहुवचनरूपं,
उद्वेगाः
उद्वेगाः, हा हर्षमर्षभय उद्वेगाः,
उद्वेगाः इति तु बहुवचनरूपम् अस्ति, हर्षमर्षभयोद्वेगेण तु एकवचनरूपं, वेगैः मुक्तः भक्तः कृष्णस्य प्रियः।
किं भगिनि
इत्युक्ते किं हर्षमर्षम्
उद्वेगाः, तत्र तत्र हा तत्र उद्वेगाः इति भावः, हर्षभावः अमर्षभावः भयः इति तादृश उद्वेगाः सन्ति, येन वयं सर्वे एतान् सर्वान् वयम् अनुभवामः, तादृशैः उद्वेगैः मुक्तः यः भक्तः अस्ति सः कृष्णस्य प्रियः इति। इत्युक्ते तत्र किं भगिनि, एक्विपोइज़ इति एक्विपोइज़ माइंड इति वदन्ति खलु हा इति तादृश तत्र यद्यपि भवतु एक 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 एकां तत्र किम् एकायां स्थित्यां हा स्थित्यां यः भवति इति तत्र उद्वेगाः सन्ति उद्वेगैः मुक्तः न पीडितः यः भक्तः सः कृष्णस्य प्रियः उद्वेगः उद्वेगैः उद्वेगाः उद्वेगैः इति
एङ्गर्
एङ्गर् हा 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 अमर्षः हा सत्यं भगिनि अमर्षः तत्र क्रोधः इति हा
क्रोधः
इति इति मन्ये भगिनि हा भयः हर्षः आनन्दः अमर्षः भयः उद्वेगाः इति तत्र प्रायशः इत्यादयः उद्वेगाः इति मन्ये हा केवलं त्रयमिति न त्रयः इति न
महोदय अत्र तु कर्तृपदं प्रियः कस्य प्रियः कृष्णस्य प्रियः कः कृष्णस्य प्रियः यः यः हर्षं वर्षं भयोद्वे न तत्तु
गैः
तत्तु न
गैः
तत्तु कैः तत्तु प्रश्नः तु कैः अस्ति अत्र तु कस्य प्रियः कृष्णस्य प्रियः मुक्तः तु मुक्तः भक्तः अपि विशेषण प्रियस्य प्रियशब्दस्य विशेषण अस्ति न महोदय
हा अतः तत्र प्रथमप्रश्नः अस्मिन् वाक्ये अस्ति क्रियापदं किम् इति
क्रियापदं तु अस्ति
अस्ति अस्तु समीचीनम् इदानीं कः अस्ति कः अस्ति
प्रियः अस्ति
न न न प्रियः न प्रियः न प्रियः न न न प्रियः न भक्तः अस्ति भक्तः अस्ति हा इदानीं तत्र कीदृशः भक्तः अस्ति
मुक्तः भक्तः
अस्ति पुनः कीदृशः
विशेषणं कीदृशः मुक्तः भक्तः
न न न तत्र केन अथवा तत्र प्रायशः कस्मात् अपि प्रायशः वक्तुं शक्नुमः इति मन्ये कस्मात् मुक्तः इति किन्तु अत्र तृतीयविभक्तिः स्वीकृतमस्ति अतः केन मुक्तः अथवा कैः मुक्तः भक्तः तत्र हर्षामर्षभयोद्वेगैः मुक्तः भक्तः हा इति इति किन्तु तत्र तृतीय अपि समीचीनम् इति किन्तु सत्यं तत्र मुक्तः इति तत्र सर्व साधारणतया पञ्चमी एव पश्यामः अतः तादृशः भक्तः यः हर्षामर्षभयोद्वेगैः मुक्तः भक्तः इदानीं पुनः एषः भक्तः कीदृशः इत्युक्ते एषः भक्तः यः हर्षामर्षभयोद्वेगैः मुक्तः अस्ति सः कृष्णस्य प्रियः इति अतः तत्र कृष्णस्य प्रियः हर्षामर्षभयोद्वेगैः मुक्तः भक्तः इति गीताञ्जलि भगिनी समीचीनं वा इदानीं
समीचीनं महोदय अवगतं धन्यवादः
अस्तु 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 अग्रे शुभदा भगिनि
महोदय वयं कृष्णम् आप्तुम् इच्छामः अभ्यासयोगः इति प्रथमविभक्ति एकवचनमस्ति अतः वयम् अभ्यासयोगेन कृष्णम् आप्तुम् इच्छामः भवति
हा समीचीनं वयं कृष्णम् आप्तुम् इच्छामः केन अभ्यासयोगेन समीचीनं भगिनि समीचीनम् अस्तु अग्रे उषा भगिनि
आं महोदय रथः चलति चक्रे इति दत्तं चक्रे स्त्रीलिङ्गे अस्ति वा महोदय चक्रा चक्रे चक्राः
न न भगिनि तत्र चक्रम् इति मन्ये भगिनि
नपुंसकलिङ्ग
वनं वने वनानि हा तत्र रथः इति तत्र साधारणतया तत्र चक्रद्वयं भवति खलु भगिनि तत्र रथस्य
चक्रद्वयं
चक्रद्वयं भवति खलु उषा भगिनि रथस्य चक्रद्वयं भवति खलु अतः हा समीचीनं हा रथः चक्राभ्यां चलति चक्रं चक्रे हा चक्रं चक्रे चक्राणि इति तत्र नपुंसकलिङ्गपदं चक्रम् इति
मम प्रश्नः चक्र अपि अस्ति वा महोदय
चक्रा इति वा
अस्ति वा महोदय
न जानामि भगिनि तत्र एतद् रूपमेव मया दृष्टं प्रायशः तत्र अहं चिन्तयामि प्रायशः तत्र चक्रम् इति तत्र सर्वत्र अहं नपुंसकलिङ्गरूपमेव दृष्टवान् इति मन्ये भगिनि
चक्रापि अस्ति परन्तु भिन्नः अर्थः महोदय
किमस्ति तत्
तत्र एकं प्लाण्ट् इति उक्तवान् एकं चक्रा इति अन्यः एकः
अस्तु अस्तु किन्तु तत्र रथसम्बद्धपदं नास्ति तत्
न रथसम्बन्धं नास्ति महोदय परन्तु
लिङ्गमस्ति
चक्र इति
ओ अस्तु अस्तु हा एतत् पदं न जानामि अस्तु
चक्रं चक्रे चक्राणि अस्ति न महोदय
सत्यं सत्यं हा समीचीनम् नत्वं भवति सत्यं हा सत्यं समीचीनं समीचीनं भगिनि हा अस्तु अग्रे नरेश महोदय
महोदय हलं हलं नपुंसक लिङ्ग अस्ति तृतीयविभक्ति हलेन बलरामः हलेन प्रहरति
हा बलरामः हलेन प्रहरति समीचीनं वंशीसुधा भगिनी अग्रे
आम् महोदय पाण्डवाः रणघोषं कृतवन्तः पाण्डवाः शङ्काः इति पुल्लिङ्गशङ्काः शङ्काः इति पुल्लिङ्गशब्दः अस्ति वा शङ्कः शङ्कः
शङ्कः इति
शङ्कः अस्तु अतः बहुवचनरूपं तृतीया विभक्ति पाण्डवाः शङ्कैः रणघोषं कृतवन्तः
तत्र प्रायशः शङ्का अपि स्त्रीलिङ्गे अस्ति इति मन्ये किन्तु तत्र संशय इति अर्थे अस्ति इति मन्ये खलु
ककार नास्ति महोदय शङ्का
इति वा अस्तु धन्यवादः भगिनि मम शङ्का आसीत् अतः एव पृष्टवान् तत्र
भवतः शङ्का समीचीनम् आसीत् महोदय
अस्तु अतः ये पुल्लिङ्गे महाप्राणः अस्ति स्त्रीलिङ्गे अल्पप्राणः अस्तु शङ्का अत्र शङ्कः अस्तु अस्तु समीचीनं धन्यवादः भगिनि
परन्तु शङ्का इति स्त्रीलिङ्गपदम् अस्ति वा महोदय शङ्का अपि शङ्का स्त्रीलिङ्गमस्ति अहं जानामि शङ्का अपि अतः
शङ्का
शङ्कः यत् दत्तमस्ति तत्तु पुल्लिङ्गपदमस्ति हा शङ्कैः इति वंशीसुधभगिनी यत् उक्तवती तत् समीचीनमेव शङ्कः यत् हा पाण्डवाः शङ्केन शङ्केन हा तत्र शङ्कैः इति भवति शङ्कैः इति किन्तु तत्र संशयः इति अर्थः तत्र तत् स्त्रीलिङ्गपदं शङ्का अस्तु समीचीनम् अस्तु धन्यवादः शोभा भगिनी अग्रे
आं महोदय शरः इति एकवचने पुंलिङ्गपदं शराः तूणीरः पूर्णः अस्ति शरैः तूणीरः पूर्णः अस्ति
शरेण भवत्याः पुस्तके तत्र तुणीरम् इति दत्तमस्ति वा तुणीरः इति दत्तमस्ति वा
तुणीरः इति अस्ति महोदय
अस्तु मम पुस्तके दोषः
तत्र अस्ति अस्ति पदम् अस्ति चेत् कर्मपदं न स्वीकरोति किल
सत्यं सत्यं किन्तु तत्र तुणीरः इति एव समीचीनं किन्तु तत्र एतत् मुद्रणदोषः अस्ति इति मन्ये भगिनि अहं किमर्थं पृच्छामि इत्युक्ते तत्र पेज् 63 पश्यतु तत्र पुस्तके तत्र पेज् 63 मध्ये सप्तमी विभक्ति इति विषयः अस्ति तत्र गजः इति यत् अस्ति चित्रम् अस्ति तत्र अकारान्तपुल्लिङ्गपदानि दत्तानि सन्ति सप्तमीविभक्तिरूपं तदनन्तरं यत्र प्रेङ्का अस्ति तत्र आकारान्तस्त्रीलिङ्गपदं तदनन्तरं बाणः यत्र अस्ति तत्र तुणीरे इति अस्ति तदनन्तरं रणक्षेत्रे कुटीरे गृहे इति अस्ति अतः चिन्तनं भवति तुणीरम् इति तद् नपुंसकलिङ्गपदं वा इति रणक्षेत्रं कुटीरं गृहम् इति किन्तु तत्र पूर्णः अस्ति चेत् तत्र तुणीरः एव भवेत्
तुणीर् पुंलिङ्गे अस्ति चेदपि तुणीरे एव भवति किल महोदय
सत्यं भगिनि सत्यं किन्तु तत्र मम पुस्तके अत्र किं दत्तमस्ति चेत् तुणीरं पूर्णः अस्ति इति पूर्णः तु पुल्लिङ्गे अस्ति विशेषणम् अस्ति तुणीरस्य किन्तु तुणीरम् इति अस्ति अतः मम संशयः आसीत् अतः भवत्याः पुस्तके तुणीरः इति अस्ति चेत् अतः समीचीनम् अतः मुद्रणदोषः अस्ति अत्र अस्तु किं भगिनि
एडिशन् अस्ति जनवरी 2013 महोदय मम पुस्तकं
भवत्याः वा मम अस्ति कदा एतद्
पुरातनं पुस्तकं महोदय
2009 मार्च्
तदनन्तरं थर्ड् एडिशन् कृतवन्तः महोदय प्रायशः समीचीनं कृतवन्तः
इदानीं समीचीनम् अस्ति अस्तु अस्तु समीचीनम् अस्तु धन्यवादः पुल्लिङ्गपदम् इति मन्ये भगिनि यतोहि अत्र पूर्णः इति विशेषणं अस्ति पूर्णः पुल्लिङ्गे अस्ति अतः तुणीरः शरैः पूर्णः शरैः तुणीरः पूर्णः अस्ति इति अतः पूर्णम् इति रूपं यदि अस्ति चेत् तद् मुद्रणदोषः अस्ति तुणीरः
महोदय
हा पुल्लिङ्गमेव हा तुणीरः
अधुना दृष्टवान्
महोदय तत्र नपुंसकलिङ्गे एव दत्तं किन्तु तत्र पश्यतु खलु तत्र समूहः किमस्ति तुणीरे रणक्षेत्रे कुटीरे गृहे इति अस्ति अतः वयं चिन्तयामः तुणीरः इति
नपुंसकलिङ्गे
अस्ति किन्तु इदानीं जानीमः
महोदय मम एकः प्रश्नः रामः इति पदस्य अपि रामे इति भवति किल महोदय
तत्तु सत्यमेव भगिनि तत्र दोषः रूपस्य दोषः इति न वदामि तुणीरः अस्ति चेदपि सप्तमीविभक्ति एकवचनं तुणीरे एव नपुंसकलिङ्गपदम् अस्ति चेदपि तुणीरे एव समीचीनम्
किन्तु मम प्रश्नः आसीत् महोदय 63 पेज् मध्ये किमर्थं नपुंसके इति
अहं चिन्तितवान् वा किन्तु पश्यतु भगिनि तत्र समूहः अस्ति तत्र वाक्यचतुष्टयम् अकारान्तपुल्लिङ्गस्य दत्तमस्ति
ओ अस्तु महोदय चिन्तितवान्
यस्मिन् समूहे अस्ति
समूहे
तत्र समूहस्य समानरूपं भवेत् खलु तत्र रणक्षेत्रे कुटीरे गृहे इति अस्ति गृहं कुटीरं रणक्षेत्रं प्रायशः तुणीरं यतोहि अन्यदपि पश्यतु तत्र प्रेङ्का वेदिका पिच्छिका वाटिका तदनन्तरं कूपी नदी प्रदर्शिनी वापी यतोहि तत्र एकसमूहः अस्ति अकारान्तपुल्लिङ्ग एक अस्ति आकारान्तस्त्रीलिङ्ग ईकारान्तस्त्रीलिङ्ग तदनन्तरम् एतत् प्रायशः अकारान्त नपुंसकलिङ्ग भवेत्
सर्वाणि पदानि अपि अस्ति महोदय कुटीरः पुंलिङ्गे अपि अस्ति.
पुल्लिङ्गे एव अस्ति इति मन्ये, नपुंसकलिङ्गे नास्ति इति अहं चिन्तयामि. किन्तु पुल्लिङ्गे अस्ति इति इदानीम् अवगतं, किन्तु नपुंसकलिङ्गे नास्ति वा इति प्रश्नः. अतः किञ्चित् क्लेशः अस्ति. अस्तु, पश्यामः. अस्तु, अतः
रणक्षेत्रे रणक्षेत्रं नपुंसकलिङ्गे अस्ति, कुटीरे कुटीरं नपुंसकलिङ्गे अस्ति, गृहे गृहं नपुंसकलिङ्गे अस्ति न महोदय?
हा, अतः एव मम चिन्तनम् आसीत् कुटी तृणीरः अपि तृणीरम् एव इति. किन्तु मम दोषः आसीत् तत्र. हा, मम दोषः आसीत्, मुद्रणदोषः प्रायशः तत्र अन्यत् स्थापितव्यम् इति मन्ये. किन्तु हा, इदानीं तत्र अस्ति एव. अस्तु, इदानीं तत्र अस्तु, इदानीं नूतन एडिशन् मध्ये तत्र पेज् 63 मध्ये किं दत्तमस्ति? तत्र अपि तृणीरेव अस्ति वा तत्रापि? अस्तु, अतः तत्र तेषां चिन्तनं किम् इति न जानामि. अस्तु अस्तु,
तत् वाक्यं तु सम्यक् महोदय, यद्यपि तूणीरं भवति.
वाक्यं तु समीचीनमेव, किन्तु तत्र वाक्यानां वाक्यस्य उपयोगः कः?
समूहः.
हा, तत्र एतत् वाक्यं दत्तमस्ति चेत् अस्तु, एतस्य वाक्यस्य पठनेन एतद् जानातु इति खलु.
महोदय, कल्पद्रुमे अधुना पश्यन्ती अस्मि, तूणीरः इति पुंलिङ्गम् इति दत्तं महोदय.
अस्तु, अतः नपुंसकलिङ्गं नास्ति. अस्तु, धन्यवादः भगिनि.
अहं मन्ये महोदय, महोदय अहं मन्ये प्रथम तु पुंलिङ्गं, तदनन्तरं नपुंसकलिङ्गं, तदनन्तरं पुंलिङ्गं, तदनन्तरं नपुंसकलिङ्गं, समानेव रूपम् अस्ति चेत् मिश्रितं दत्तं महोदय.
पेटर्न् अस्ति, पेटर्न्
अस्ति महोदय.
अत्र वा किमर्थं किमर्थं तत्र पेटर्न् तत्र तृणि रणक्षित्? ओ, भवती तादृशचिन्तनं कृतवती वा?
हा, तस्य तत्तु मम अहं मन्ये इति.
भवती किं
तत्र महोदय, तत्र नौका इति अपि अस्ति, अन्यद् अन्यानि सर्वाणि नपुंसकलिङ्गे.
कुत्र?
तत्र 63 एव महोदय, तत्र औषधम् इति अस्ति किल तस्य पार्श्वे, तत्र नौका इति स्त्रीलिङ्गम् अस्ति किल महोदय?
किन्तु तत्र तत्र तु कुत्र तत्र कूपी इति अस्ति, तत्र तु कूप्यां, नद्यां, प्रदर्शिन्यां, वाप्यां, तत्सर्वं
तत्र न महोदय. तत्र औषधम् अपि च अत्र कूप्यां, नद्यां, प्रदर्शिन्यां. अस्तु,
तत्र यत्पदं मध्ये अस्ति, यत्पदं मध्ये अस्ति तत् सप्तमी विभक्त्यन्तम् अस्ति. अतः कर्तृपदं न क्रियापदं न, मध्ये यत्पदं स्थापितम् अस्ति तत्र सप्तमी विभक्त्यन्तं पदं, तत् समूहे तत्र स्त्रीलिङ्गपदम् अस्ति, अथवा आकारान्तस्त्रीलिङ्गम्, ईकारान्तस्त्रीलिङ्गम्, अकारान्तपुल्लिङ्गं, सर तत्र चतुष्टयं प्रथमतया तत्र एकवचने सर्वं दत्तमस्ति, तदनन्तरं द्विवचने दत्तमस्ति, तदनन्तरं बहुवचने दत्तमस्ति इति स्वरूपः तत्र. किन्तु तत्र तृणीरः अस्ति, अतः मम क्लेशः. अस्तु, हा, समीचीनम्. इदानीं तत्र तृणीरः इति पुल्लिङ्गपदम् इति जानामि. अस्तु, हा, अग्रे गीताञ्जलि भगिनि.
अस्तु, किं नो राज्यं गोविन्द, किं नो राज्यं तु नपुंसकलिङ्गपदं,
राज्यम् इति नपुंसकलिङ्गपदं,
नपुंसकलिङ्गपदम् अत्र. सो किं नो राज्येन गोविन्द इति सम्बोधन,
इति सम्बो किं नो राज्येन गोविन्द इति. समीचीनं भगिनि. राज्येन किं प्रयोजनम् इति प्रायशः राज्येन किं नो नो इति तत्र प्रायशः तत्र
नो नो इत्युक्ते अहम् आवां वयम् इति षष्टि षष्टि न चतुर्थी क्षम्यतां
चतुर्थी बहुवचन
चतुर्थी बहुवचन क्षम्यतां चतुर्थी बहुवचन
समीचीनं नः इति किं नः नः इत्युक्ते अस्मद्शब्दस्य नः अतः तत्र राज्येन किं भवति किं प्रयोजनम् इति अस्तु अग्रे शुभदा भगिनि
महोदय तत्र द्विवचनमपि भवति किल अस्मान् किं
नः नः इति नः इति द्विवचने नास्ति भगिनि तत्र अस्मभ्यम् इति
द्विवचने अपि अस्ति महोदय मां मा आवां नौ अस्मान् नः
नेतव्यम् अस्मान् नः
किं भगिनि
द्विवचने
अस्ति महोदय ओ तत् सत्यं द्विवचने न द्वितीयविभक्तौ द्वितीयविभक्तौ इति
क्षम्यतां द्वितीयविभक्तौ महोदय द्वितीय
द्वितीयविभक्तौ अपि अस्ति
तत्र नेतव्यं महोदय तत्र किं नो गोविन्दः
किमर्थं किमर्थं तत्र तत्र किं प्रयोजनं
कुत्र अस्ति महोदय
किं नो किं नो
नौ इति अस्ति नो इति
नो नो इति तत्र विसर्गसन्धि भवति भगिनि तत्र नः अस्ति चेत् तत्र शिवः अहम् इति शिवोऽहम् इति ओकारः भवति इति अतः तत्र नो इति नः इति रूपं नः इति रूपं नो इति रूपं स्वीकरोति अतः किं नो राज्येन गोविन्द
तत् द्वितीयविभक्त्या नो चेत् चतुर्थी विभक्ति नेतव्यं
चतुर्थी इति मन्ये भगिनि चतुर्थी इति मन्ये भगिनि तत्र
राज्यं गोविन्द वा
राज्येन किं भवति तत्र तत्र मह्यं तत्र तत्र प्रयोजनं किम् इति अर्थे भगिनि तत्र
अस्तु अस्तु
तत्र तत्र मह्यं तत् किं ददाति इति किं प्रयोजनं ददाति इति राज्यं मह्यं किं ददाति इति अथवा नो किं ददाति इति अतः राज्येन किं नः गोविन्द इति किं नो राज्येन गोविन्द इति अस्तु अग्रे शुभदा भगिनि एतत् तत्र वाक्यद्वयमस्ति एतत् पठित्वा समापयामः
पक्षिणः डयन्ते पक्षौ पक्षौ इति पुल्लिङ्गशब्दस्य द्विवचनं वा लैक् रामौ
पक्षः
पक्षः सो पक्षिणः पक्षिणः पक्षाभ्यां डयन्ते
इति मन्ये पक्षौ इति पक्षाभ्यां डयन्ते पक्षिणः पक्षाभ्यां डयन्ते समीचीनं सारि 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 क्षम्यतां उषा भगिनी अन्तिमं
छात्राः लेखन्यः लेखन्यः अस्ति लेखन्यः स्त्रीलिङ्ग लेखनी लेखन्यौ लेखन्यः बहुवचने अतः छात्राः लेखनीभिः लिखन्ति इति अस्ति
लेखनीभिः लिखन्ति छात्राः लेखनीभिः लिखन्ति समीचीनं अस्तु समीचीनम् अस्तु तत्र अस्तु समापयामः इदानीं तत्र तृतीयविभक्तेः रूपस्य अभ्यासं जातं किञ्चित् प्रयोगस्य अभ्यासमपि जातम् अग्रिमवर्गे तत्र पुनः रूपस्य अपि प्रयोगस्य सर्वं भवति अस्तु तर्हि तत्र शुभभगिनी अन्ते तत्र शान्तिमन्त्रम् अथवा किमपि वदति वा भगिनि तदनन्तरं समापयामः
आं महोदय ॐ
पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते ॐ शान्ति शान्ति शान्तिः
धन्यवादः भगिनी
धन्यवादः